चारिष्णम् चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णम् चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णम् चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णम् चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णम् चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णम् चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ तृष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धारपृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धारपृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धारपृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धारपृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धारपृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धारपृथ्वीं दिवं च स आचार्य तपसा विभर्ति चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति Thank you. ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदाधार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति Thank you. चारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति ॐ ब्रह्मचारिष्णं चरति रोदसी उभे तस्मिन् देवाः सम्मनसो भवन्ति सदा धार पृथ्वीं दिवं च स आचार्य तपसा विभर्ति